अथ आयुर्वेदोक्तधन्वन्तरिस्तोत्रम्। ॐ नत्वा शिवं परं तत्त्वकलाविरूढं ज्ञानामृतैकचतुलं परमात्मरूपं रोगादिरोगशमनं दमनं स्मरस्य सस्वत्यपादिपदरं त्रिगुणात्मरूपम्। ॐ यदा यदा शोषयते मलानाम् अग्निस्तदा तृप्तिमिवाप्नोति।
महा